इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखर सम्मेलने भागं ग्रहणाय अद्य इटली देशं प्रति यास्यति। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता पेमा खण्डुः अद्य अनवरतं तृतीयवारं अरुणाचल प्रदेशस्य मुख्यमन्त्री पदस्य शपथं गृहीतवान्। नीट यूजी परीक्षायां संलग्नानां सर्वेषां त्रिषष्ट्याधिक पञ्चशतोत्तर एकसहस्राभ्यर्थिनां पुनः परीक्षणम् अस्य मासस्य त्रयोविंशतिः दिनांके भविष्यति। विदेश राज्यमंत्री कीर्तिवर्धन सिंहः कुवैतनगरस्य मनगाफ क्षेत्रं प्राप्तवान्। तस्य यात्रायाः उद्देश्यं दुर्घटनायां मृतकानां पार्थिव शरीराणि प्रत्यानयन विषये स्थानीयाधिकारिभिः सह समन्वयं स्थापनं वर्तते। अपि च विंशति प्रतिविंशति क्रिकेट विश्व चषक स्पर्धा मालिकायाम् अद्य बांग्लादेश दलं नीदरलैंड दलेन सह योत्स्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखर सम्मेलने भागं ग्रहणाय अद्य इटली देशं प्रति यास्यति। विदेश सचिवः विनय मोहन क्वात्रा राजधान्यां नवदिल्ल्यां वार्ताहरान् उक्तवान् यत् भारतं सम्पर्क देशरूपेण शिखर सम्मेलने आमन्त्रितम्। तृतीयवारं पदग्रहणानन्तरं प्रधानमन्त्रिणः मोदिनः एषा प्रथमा विदेशयात्रा भविष्यति। श्रीक्वात्रा उक्तवान् यत् सम्मेलने वैश्विक नेतृभिः सह भारताय अल्पविकसित देशानां च कृते महत्वपूर्ण विषयेष् चर्चायाः महत्वपूर्णः अवसरः भविष्यति। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता पेमा खण्डुः अद्य अनवरतं तृतीयवारं अरुणाचल प्रदेशस्य मुख्यमन्त्री पदस्य शपथं गृहीतवान्। राज्यस्य राजधान्याम् ईटानगर्याम् आयोजिते समारोहे पेमा खण्डुः इत्यमुना एकादश अन्य विधायकैः अपि मन्त्रिरूपेण शपथं गृहीतम्। राज्यपालः लेफ्टिनेंट जनरल केटी पटनायक मुख्यमन्त्रिणे अन्येभ्यः मन्त्रिभ्यः च पदस्य गोपनीयतायाः शपथं प्रतिज्ञापयत्। अत्रावसरे केन्द्रीयो गृहमन्त्री अमितशाहः, स्वास्थ्यमन्त्री जेपी नड्डा, केन्द्रीयमन्त्री किरेन रिजिजू, असम सिक्किम राज्ययोः मुख्यमन्त्रिणौ अन्ये च गणमान्याः उपस्थिताः आसन्। वार्ताहरैः सह भाषमाणः खाण्डुमहोदयः अवदत् यत् राज्यस्य विकासाय दलस्य निर्वाचन घोषणापत्रे कृतानि वचनानि पूरयितुं राज्यसर्वकारः कार्यं करिष्यति। नीट यूजी परीक्षायां संलग्नानां सर्वेषां त्रिषष्ट्याधिक पञ्चशतोत्तर एकसहस्राभ्यर्थिनां पुनः परीक्षणम् अस्य मासस्य त्रयोविंशति दिनांके भविष्यति। ये परीक्षायाम् अनुग्रह अथवा प्रतिपूरक अंकानि प्राप्ताः। अद्य प्रसारिते अधिसूचनायां राष्ट्रिय परीक्षण अभिकरणस्य कथनम् अस्ति यत् सः शीघ्रमेव सार्वजनिक सूचना प्रसारयिष्यति तथा च एतेषाम् अभ्यर्थिनां कृते ईमेल माध्यमेनापि सम्पर्कं करिष्यति यत्ते आधिकारिक संचारं प्राप्नुवन्ति इति सुनिश्चितं करिष्यति। एनटीए इत्यनेन उक्तं यत् एनटीए उच्च समितेः प्रतिवेदने सर्वोच्च न्यायालयस्य आदेशानुसारं पुनः परीक्षणस्य निर्णयः कृतः अस्ति। सर्वेषां त्रिषष्ट्याधिक पञ्चशतोत्तर एकसहस्राभ्यर्थिनां कृते प्रदत्ताः अनुग्रह अथवा प्रतिपूरक अंकानि प्रत्यावर्तितानि सन्ति। इदानीं केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधानेन नीट यूजी परीक्षा प्रश्नपत्राणां कथितस्य पूर्वप्रसारस्य खण्डनं कृतम्। नीट परीक्षायां भ्रष्टाचारः नास्ति इति सः बोधितवान्। अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् प्रधानमहोदयः नीट विषये सर्वोच्च न्यायालयस्य निर्णयस्य स्वागतं कृतवान्। नीट परीक्षायां कथितानां विसंगतानां विषये प्रधानमहोदयः अवदत् यत् परीक्षायां समस्यां जनयितुम् उत्तरदायि जनानाम् उपरि उचित कार्याचरणं भविष्यति। सः छात्रान् अभिभावकान् च आश्वासितवान् यत् केन्द्रं तेभ्यः न्यायं दातुं प्रतिबद्धमस्ति। अस्य मासस्य एकविंशे दिने जगति योगदिवसाचरणं विधास्यते। अन्ताराष्ट्रिय योगदिवसस्य दशम संस्करणस्य सज्जतादृष्ट्या प्रधानमन्त्री नरेन्द्रमोदी अद्य एक्स इत्यत्र ताडासनस्य दृश्यांकनं प्रसारयत्, यत्र ताडासनस्य विधिः स्वास्थ्यलाभाः च विशदीकृतः। प्रधानमन्त्रिणा उक्तं यत् ताडासनः शरीराय अतीव उत्तमः अस्ति। एतत् आसनम् अस्मभ्यम् अधिकं बलं ददाति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। विदेश राज्यमन्त्री कीर्तिवर्धन सिंहः अद्य मनगाफ क्षेत्रं प्राप्तवान्, यत्र सः अग्निदुर्घटनायाम् आहतानां सहायतायाः निरीक्षणं करिष्यति। तस्य यात्रायाः उद्देश्यं दुर्घटनायां मृतकानां पार्थिवशरीराणि प्रत्यानयनविषये स्थानीयाधिकारिभिः सह समन्वयं स्थापनं वर्तते। कुवैतं प्राप्य कीर्तिवर्धन सिंहः तत्क्षणमेव जाविर चिकित्सालयम् उपेत्य अग्निदुर्घटनायां प्रभावितजनैः सह अमिलत्। चिकित्सालये उपचर्यमाणैः षड्व्रणितजनैः सह संवादं निकाय कुवैतनगरे भारतीय दूतावासं सूचयत् यत् सर्वे व्रणिताः सुरक्षिताः सन्ति। अत्रान्तरे कुवैते दुरापादिताम् अग्निदुर्घटनां निध्याय केरले मन्त्रिमण्डलस्य विशेषोपवेशने राज्यस्य प्रत्येकं पीडित परिवाराय 5 लक्ष रूप्यकाणां, प्रत्येकं व्रणिताय च 1 लक्ष रूप्यकाणां अनुग्रह राशि प्रदानस्य निर्णयः स्वीकृतः। केरलस्य कतिपय प्रवासी व्यवसायिभिः अपि अतिरिक्त राशि प्रदानस्य निर्णयो विहितः। सर्वकारेण आगामि 5 वर्षेषु देशस्य रक्षा निर्यातं समेध्य 50,000 कोटिरूप्यकाणां लक्ष्यं स्थापितम्। मन्त्रालयस्य पदभारग्रहणानन्तरं रक्षामन्त्रिणा राजनाथसिंहेनोक्तं यत् भारतेन इदानीं यावत् 21,000 रूप्यकाधिक रक्षोपकरणानां निर्यातो विहितः। तेन इदमपि कथितं यत् सर्वकारः एकं दृढम् आत्मनिर्भरं च भारतं विकसितुम् इच्छति। सहैव देशस्य रक्षा सुरक्षाबलानां कल्याणं च सर्वकारस्य प्राथमिकता वर्तते। केन्द्रीय युवा क्रीडा मन्त्री डॉ मनसुख मंडाविया अद्य दिल्ल्यां भारतीय ओलम्पिक संघस्य कार्यालयाधिकारिभिः सह उपवेशनं कृत्वा एषमः पेरिस ओलम्पिक क्रीडा सज्जतायाः समीक्षां कृतवान्। अस्मिन् उपवेशने राज्यमन्त्री रक्षा खड्गे इत्यनयां समेत्य मन्त्रालयस्य वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्। उपवेशनस्य अनन्तरं वार्ताहरैः सह संवादन्तीं भारतीय ओलम्पिक संघस्य अध्यक्षा पीटी उषा उक्तवती यत् सर्वाः सज्जाः कृताः। सर्वोच्च प्राथमिकतायां क्रीडकेभ्यः सर्वविधं सौविध्यं प्रदत्तम्। तया इदमपि उक्तं यत् भारतीय ओलम्पिक संघः अस्मिन् समये टोक्यो ओलम्पिक क्रीडापेक्षया अधिकानि पदकानि अपेक्षते। विंशति प्रतिविंशति क्रिकेट विश्व चषक स्पर्धा मालिकायाम् अद्य बांग्लादेश दलं नीदरलैंड दलेन सह योत्स्यति। एषा स्पर्धा वेस्ट इंडीज देशस्य किंग्सटाउन इत्यत्र भविष्यति। इति वार्ताः।